हरे कृष्णा कृष्ण कृष्ण हरे हरे, हरे राम 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 हरे हरे। प्रथम स्कंध अथ षोडशोध्याय, परीक्षित महाराज की दिग्विजय तथा धर्म और पृथ्वी का संवाद। सुत उवाच, ततः परीक्षित द्विजवर्ज शिक्षया महीम महाभागवतः सशास, यथा हि सुत्यामभिजात कोविदः समादिशन विप्रमहद्गुणस्तथा, स उत्तरस्य तनयामुपयेम ईरावतीम्। जन्मे जयादिश्चतुरस्तस्यामुत्पादयत्सुतान्, आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरि दक्षिणान्, शारदवतं गुरुं कृत्वा देवा जत्राक्षिगोचरः। निजग्राहौ जशा वीरा कलिं दिग्विजये क्वचित्, नृपलिङ्गधरं शूद्रं गणन्तं गोमिथुनं पदा। शौनक उवाच, कस्य हेतो निजग्राह कलिं दिग्विजये नृपः, निर्देव चिह्न शूद्र को सौगाम्यः पदाहनत्। तत्कथ्यताम् महाभाग यदि कृष्ण कथाश्रयम्, अथवास्य पदाम् भोज मकरन्दलिहाम् सताम्, किमन्यैरसदालापैरायुषो जदसद्व्ययः। क्षुद्रायुषाम् नृणामङ्ग मर्त्यानामृतमिच्छताम्, इहोपहूतो भगवान् मृत्युः सामित्रकर्मणि, न कश्चिद् म्रियते तावद् यावदास्त इहान्तकः। एतदर्थम् हि भगवान् आहूतः परमर्षिभिः। अहो नृलोके पीयेत हरिलीलामृतम् वचः, मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै, निद्रया ह्रियते नक्तम् दिवाच व्यर्थकर्मभिः। सुत उवाच, यदा परीक्षित कुरुजाङ्गले वसत् कलिम् प्रविष्टम् निजचक्रवर्तिते, निशम्य वार्ता मनति प्रियां ततः शरासनम संजुग सौंडिरादे, स्वलं कृतं श्याम तुरंग योजितं रथं मृगेन्द्र ध्वजमाश्रितः पुरात्, वृतो रथास्वद्विपत्ति युक्तया स्वसेनया दिग्विजयाय निर्गतः। भद्राश्वं केतुमालं च भारतं च तरान् कुरुन्, किं पुरुषादीनि वर्षाणि विजित जगृहे बलिम्। तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनां प्रगीयमानं च यशः कृष्णमाहात्म्यसूचकम्, आत्मानं च परित्रातम् अश्वत्थाम्नोऽस्त्र तेजसः, स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे। तेभ्यः परम् सन्तुष्टः प्रत्युज्जृम्भितलोचनः, महाधनानि भाषांसि ददौ हारान् महामनः। सारथ्यपार्षदसेवनसख्य दौत्य वीरासनानुगमनस्तवन प्रणामान्, स्निग्धेषु पाण्डुषु जगत् प्रणतिम् च विष्णोर्भक्तिम् करोति नृपतिश्चरणारविन्दे। तस्यैवं वर्तमानस्य सर्वेषां वृत्तिमन्वहम्, नातिदूरे किलाश्चर्यं जदासीत् तन्निबोध मे। धर्मः पदैकेन चरन् वीक्षायामुपलभ्यगाम्, पृच्छति स्म श्रुवदनां विवत्साम्यो मातरम्। धर्म उवाच, क्वचिद् भद्रेणामयमात्मनस्ते विच्छायासि म्लायते सन्मुखेन, आलक्षये भवतीमन्तराधिम् दूरे बन्धुम् शोचसि कञ्चनाम्ब, पादैर्न्यूनम् शोचसि मैकपादम् आत्मानम् वा वृषलैर्भोक्ष्यमाणाम्, आहो सुरादिन् हृतजज्ञभागान् प्रजा उतस्वित् मघवत्य वर्षति। अरक्ष्यमाणः स्त्रिय उर्विबालान् शोचस्यथो पुरुषादैरिवार्तान्, वाचम् देवीम् ब्रह्मकुले कुकर्मण्य ब्रह्मणे राजकुले कुलाभ्यान्। किं छत्रबन्धुन् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि इतस्ततो वा सनपान वा सहस्नान व्यवायोन्मुखजीवलोकम् जद्वाम्बते भूरिभरावतार कृतावतारस्य हरेर्धरित्री अन्तर्हितस्य स्मृति विसृष्टा कर्माणि निर्वाण विलम्बितानि इदं ममाचक्षुस्तवाधिमूलम् वसुन्धरे येन विकर्षितासि कालेन वाते बलिनां बलीयसा सुरार्चितं किं हृतमं वसौभगम् धरणि उवाच भवानि वेद तत्सर्वं जन्मां धर्मान् पृच्छसि चतुर्भिर्वर्तसे येन पादलोकसुखावहै सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् समोदमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च प्रागल्भ्यं प्रश्रयशीलं सह ओजो बलं भगः गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिमानोऽहं कृतिः एते चान्ये च भगवन्नित्या यत्र महागुणः प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हि चेत् तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् शोचामि रहितं लोकं पाप्मना कलिनक्षितम् आत्मानं चान शोचामि भवन्तं चामरोत्तमम् देवान् पितृन् ऋषिन् साधुन् सर्वान् वर्णंस्तथाश्रमान् ब्रह्मादयो बहुतिथं जदपाङ्गमोक्ष कामांस्तपः समचरन् भगवत्प्रपन्नः शास्त्री स्ववासमरविन्दवनं विहाय यत्पादसौभगमलं भजते नुरक्ता तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः श्रीमत्पदैर्भगवतः समलं कृताङ्गी त्रीनत्यरोचुपलभ्य ततो विभूतिं श्लोकान् समां व्यसृजतु स्मयतिं तदन्ते यो वै ममातिभरमासुरवंशराज्ञाम् अक्षहणीशतमपान् ददात्मतन्त्रः त्वां दुस्तमुन्नपदमात्मनि पौरुषेण सम्पादयन् जदुसुरम्यम् बिभ्रदङ्गम् का वा सहेतविरहम् पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितबल्गुजल्पैः स्थैर्यम् समानमहरन् मधुमानिनीनाम् रोमोत्सवो मम जदङ्घ्रिविटङ्कितायः तयोरेवम् कथयतोः पृथिवी धर्मयोस्तदा परीक्षिन्नाम राजर्षि प्राप्तः प्राचीम् सरस्वतीम् इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायां प्रथमस्कन्धे पृथ्वीधर्मसंवादो नाम षोडशोऽध्यायः।